इयं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधी तिवारी। आदौ मुख्याः वार्ताः। लोकसभा निर्वाचनस्य प्रथमचरणस्य मतदानात् पूर्वं प्रमुख राजनीतिक दलानां नेतृभिः मतदातृन् आक्रष्टुं नैर्वाचनिक प्रचाराभियानं तीव्रीकृतम्। प्रशासनेन द्विदलानां निजव्यवसाये संलग्नेभ्यः जनेभ्यः आवश्यक वस्तु अधिनियमस्य प्रावधानानाम् अन्तर्गतं दण्डस्य प्रत्यादेशः प्रदत्तः। देशेन अद्य जलियावालाबाग नरसंहारस्य वीरसैनिकाः स्मर्यन्ते। राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री, अनेके नेतारश्च जलियावालाबाग प्रकरणे हुतिंगतेभ्यः वीरेभ्यः श्रद्धाञ्जलिं समर्पितवन्तः। ऑस्ट्रेलियायाः सिडनी नगरे एकस्मिन् आपणे दुरापादिते घटनाक्रमे षड् जनाः मृताः, शताधिकाश्च जनाः ततो बहिः निष्कासिताः। अपि च आईपीएल इत्यस्यां क्रिकेट प्रतिस्पर्धायाम् अद्य सायंकाले सार्धसप्तवादने मोहाली नगरे पंजाब किंग्स राजस्थान रॉयल्स दले परस्परं सम्मुखीकरिष्यतः क्रीडार्थम्। अथ वार्ताः विशदीकृत्य। लोकसभा निर्वाचनस्य प्रथमचरणस्य मतदानात् पूर्वं प्रमुख राजनीतिक दलानां नेतृभिः मतदातृन् आक्रष्टुं नैर्वाचनिक प्रचाराभियानं तीव्रीकृतम्। देशस्य अनेकेषु भागेषु विविध राजनीतिक दलानां शीर्षनेतारः जनसभाः समागमाश्च कुर्वन्ति। प्रथमे चरणेऽस्मिन् 17 राज्याणां चतुर्णां केन्द्रशासित प्रदेशानां च 2.1 लोकसभासनैः सह सिक्किमस्य 32 विधानसभासनेभ्यः, अरुणाचलप्रदेशस्य च 6 विधानसभासनेभ्यः मतदानम् अस्य मासस्य 19 भविष्यति। भारतीय जनता पार्टीति दलस्य लब्धप्रतिष्ठिताः नेतारः यथा अमितशाहः, राजनाथसिंहः, जेपी नड्डाः, उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथश्च देशस्य विविधेषु भागेषु नैर्वाचनिक प्रचाराभियाने निरताः सन्ति। भाजपेति दलस्य वरिष्ठनेता अमितशाहः अद्य प्रातः तमिलनाडोः कन्याकुमार्यां पथप्रदर्शनम् एकं कृतवान्। थक्कालाई इत्यत्र निर्वाचन प्रसारं कुर्वन् असौ कथितवान् यत् प्रधानमन्त्री नरेन्द्रमोदी तमिलनाडु जनेभ्यः विशेषरूपेण चिन्तितो वर्तते। यसो हि प्रधानमन्त्री संसदि सेंगोल इति स्थापयित्वा तमिलजनेभ्यः महत्वं प्रदत्तवान्। श्रीशाहेन आरोपितः यत् द्रमुकदलं सनातनधर्मं राममन्दिरं च विरुद्धं वर्तते, तद्वदेव बहुसंख्यकजनान् प्रभावितम् अपि करोति एतद्दलम्। असौ अग्रे प्रत्यपादयत् यत् भाजपादलं विकसित भारत दिशि सकलान् वर्गान् रक्षयति, तान् च गृहीत्वा कार्यमपि समाचरति। श्रीशाहः प्रोक्तवान् यत् द्रमुक कांग्रेस दलयोः सम्बद्धं प्रवञ्चनास्वरूपम् अस्ति। भाजपेति दलस्य प्रशासनेन विगत 10 वर्षेषु अनेकाः योजनाः प्रारब्धाः। श्रीशाहः राजस्थानस्य अलवर जनपदं, उत्तरप्रदेशस्य च नोएडा इत्यत्र प्रति च गमिष्यति। अस्य दलस्यैव अपरा नेत्री निर्मला सीतारामन् इत्येषा अद्य तंजावुरे प्रचाराभियानं कृतवती। भाजपादलस्य राष्ट्रियाध्यक्षः जेपी नड्डाः नागालैण्डस्य चुमुकेदिमा एग्री एक्सपो इत्यत्र एकं समागमं सम्बोधयिष्यति। भाजपादलस्यैव नेता उत्तरप्रदेशस्य च मुख्यमंत्री योगी आदित्यनाथः प्रोदीरितवान् यत् अस्माभिः परिवर्तनशील भारतम् अवलोकितम्। श्रीयोगिना अद्य मुरादाबादे जनसभाम् एकां सम्बोधयता वार्तेयं कथिता। तेलंगानाराज्ये एमआईएम दलाध्यक्षः असदुद्दीन उद ओवैसी इत्येषः हैदराबाद लोकसभा क्षेत्रस्य विभिन्नेषु स्थलेषु प्रतिद्वारं एकं अभियानं कृतवान्। कांग्रेसस्य नेत्री प्रियंका गांधी उत्तराखण्डस्य रामनगरे नैर्वाचनिक पथप्रदर्शनं कृतवती। प्रशासनेन द्विदलानां निजव्यवसाये संलग्नेभ्यः जनेभ्यः आवश्यक वस्तु अधिनियमस्य प्रावधानानाम् अन्तर्गतं दण्डस्य प्रावधानं प्रदत्तः। उपभोक्तृ विषयक सचिवः निधिः खरेः अप्रैल मासस्य 15 दिनात् ऑनलाइन स्टॉक मॉनिटरिंग इत्यस्य संचालनक्रमे द्विदल उद्योगस्य प्रतिनिधिभिः सह वार्तावधौ वक्तव्यमिदं कथितवती। द्विदलागाराणां विषये उद्योग विषये उद्योगजगता प्राप्त सूचनायाः आपण प्रतिनिधिभिः सह प्राप्त सूचनायाः उपमितिः जाता येन हि द्विदलगारेषु आभासीय रूपेण अवधानं दीयताम्। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। देशेन अद्य जलियावालाबाग नरसंहारस्य वीरसैनिकाः स्मर्यन्ते। अस्मिन् एव दिने 1919 वर्षे ब्रिटिश जनरल डायर इत्यनेन भारतस्य पंजाबक्षेत्रस्य अमृतसरे बैसाखी उत्सवं मानयितुं जलियावाला बागस्थले समागतानां शताधिकानां निःशस्त्राणां जनानाम् उपरि गोलिकाप्रहारस्य आदेशः प्रदत्तः आसीत्। शताधिकाः जनाः अस्यां घटनायां मारिताः, अनेके च व्रणिताः जाताः। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखडः, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयमन्त्रिणौ अमितशाहः, डॉ एस जयशंकरौ च जलियावाला बाग प्रकरणे हुतिंगतेभ्यः वीरेभ्यः श्रद्धाञ्जलिं समर्पितवन्तः। लद्दाखे कारगिल विजयस्य रजत जयन्तीम् आमानयितुं सूचना प्रौद्योगिकी मन्त्रालयेन भारतीय सैन्यबलस्य फॉरएवर इन ऑपरेशंस डिवीजन इत्यनेन च विशेष रेडियो केन्द्रं सफलतापूर्वकं संचालितम्। गतवर्षे अप्रैल मासस्य 11 दिने अस्य रेडियो केन्द्रस्य स्थापनायाः उद्देश्यं कारगिल वास्तव्यानां जनानां भारतीय सैन्यबलस्य च वीरतायाः सम्मानम् अस्ति। सैन्यबलेन संचालितेन रेडियो केन्द्रेण जगति 50 देशैः सह उल्लेखनीय सम्बन्धाः अपि स्थापिताः। भारतस्य उदारभावनायाः विजयस्य च प्रतीकम् अल्फा टैंगो इति दलं भारतस्य प्रतिनिधित्वं विदधाति। अस्मात् रेडियो केन्द्रात् सर्वतो दीर्घ संचारः संयुक्तराज्य अमेरिकया सह कृतम्। यत् हि कारगिलात् 13,000 किलोमीटर दूरस्थं विद्यते। कार्यक्रमस्य अंशरूपेण प्रतिभागाय लद्दाख विश्वविद्यालयस्य छात्रेभ्यः जागरूकता कार्यक्रमः आयोजितः। अस्योद्देशं छात्रेभ्यः परिपक्व रेडियो केन्द्रस्य कार्यप्रणाल्याः महत्वशिक्षणम् अवर्तत। भाजपेति दलस्य वरिष्ठनेता केन्द्रीयमन्त्री च अनुराग सिंह ठाकुरः अद्य मध्यप्रदेशस्य पाण्डुर्णानगरे विपक्षि संयुत्याः आलोचनां कुर्वन् उक्तवान् च एतस्यां संयुत्याम् एकः नेतः नास्ति, लक्ष्यम् एकं नास्ति, नेतृत्वम् एकं नास्ति, विचारधारा संकल्पश्च एकः नास्ति, सम्प्रति च घोषणापत्रमपि एकं नास्ति। पाण्डुर्णानगरे वार्ताहरैः समं भाषमाणः असौ प्रोक्तवान् यत् राष्ट्रमिदं कदापि विभाजित संयुतिं नैव स्वीकरिष्यति। असौ कांग्रेसदले आदिवासिभिः जनैः सह दुर्व्यवहारस्य आरोपमपि साधितवान्, आम आदमी पार्टीति दलस्यापि भर्त्सना कृतवान्। ऑस्ट्रेलियायाः सिडनीनगरे एकस्मिन् आपणे दुरापादिते घटनाक्रमे 6 जनाः मृताः, शताधिकाश्च जनाः ततो बहिः निष्कासिताः। आईपीएल इत्यस्यां क्रिकेट प्रतिस्पर्धायाम् अद्य सायं 7:30 चण्डीगढ़े पंजाब किंग्स राजस्थान रॉयल दले परस्परं सम्मुखीकरिष्यतः। क्रीडार्थं ह्यः लखनऊ नगरे डेल्ही कैपिटल्स दलेन लखनऊ सुपर जायंट्स दलं 6 स्तोभैः पराजितम् आसीत् इति वार्ताः।